पाठ शनिचर देव का किन्हो विमल तयार करत पाठ चालीस दिन हो भव सागर पार श्री स्तुति दशरथ किए सन्मुख शनि निहार सरस सुभाषा में वही लालता लिखा सुधार शनि स्तोत्रम् अस्य श्री शनेश्वर स्तोत्र मंत्रस्य दशरथ ऋषिः शनेश्चरो देवता त्रिष्टुप छन्दः शनेश्चर प्रत्यर्थे जपे विनियोगः दशरथ उवाच कोणोऽन्तको रौद्रयमोऽथ बभ्रुः कृष्णः शनिः पिंगल मंद सौरी नित्यं स्मृतो यो हरते च पीडां तस्म नमः श्रीरविनन्दनाय सुरासुरः किं पुरुषा गणेन्द्रा गंधर्व विद्याधर पन्नगाश्च पीडन्ति सर्वे विषम स्थितेन तस्मै नमः श्रीरविनन्दनाय नरा नरेन्द्रः पशवो मृगेन्द्र वनाश्च ये कीटपतङ्गभृङ्गा पीडन्ति सर्वे विषमस्थितेन तस्मै नमः श्रीरविनन्दनाय देशाश्च दुर्गाणि वनानि यत्र सेनानि वेशापुरपत्तनानि पीडन्ति सर्वे विषमस्थितेन तस्मै नमः श्रीरविनन्दनाय तिलैर्यवैर्माश गुडान्न दानैर्लोहेन नीलाम्बरदान तोवा प्रीणाति मन्त्रैर्निजस्वासरे च तस्मै नमः श्रीरविनन्दनाय प्रयागकूले यमुनातटे च सरस्वती पुण्यजले गुहायां यो योगिनां ध्यानगतोपि सूक्ष्मस्तस्मै नमः श्रीरविनन्दनाय अन्यप्रदेशात् स्वगृहं प्रविष्टस्वदीयवारे स नरः सुखी स्यात् ग्रहाद्दन्नो यो न पुनः प्रयाति तस्मै नमः श्रीरविनन्दनाय सृष्टा स्वयं भूर्भुवन्त्रयस्य त्राता हरिः संहर्ते पिनाकी एकस्त्रिधा ऋग्ययुजुः साममूर्तिस्तस्मै नमः श्रीरविनन्दनाय शन्यष्टकं यः पठति प्रभाते नित्यं सुपुत्रैः पशुबान्धवैश्च पठेश्च सौख्यं भुवि भोगयुक्तं प्राप्नोति निर्वाणपदं परं सः कोणस्थः पिंगलो वभ्रुः कृष्णो रौद्रोऽन्तको यमः सौरिः शनैश्चरो मन्दः पिप्पलादेन संस्तुतः एतानि दश नामानि प्रातरुत्थाय यः पठेत् शनैश्चरकृता पीडान् कदाश्चित् विश्यति इति श्रीदशरथ प्रोक्तं श्रीशनैश्चरस्तोत्रं सम्पूर्णम्।